युजेवाम् ब्रह्म गोर्व्यन्नवोभिर्विश्लोक एतु पथ्ये एव सूरेः शृण्वन्त विश्वे अमृतस्य पुत्रा आजेधमानि दिव्यानि तस्थः यमे इव यतमाने यदैतम् प्रभाम् फरन्मानुषादे भजन्ताः आसीतम् स्वमलोकम् विदाने स्वासस्थे भवतमिन्दवेनः पञ्चपदानि रूपो अन्वरोहम् चतुष्पदे मन्वे विव्रतेन अक्षरेण प्रतिबिम एतावृतस्य नाभावधि सम्पुनामि देवेभ्यः क्रमवृणीत भृत्यम् प्रजाजैकमवृतम् नावृणीत बृहस्पती यज्ञमकृण्वदर्शिम् प्रजाञ्जमस्तन्वा अम्ब्रानिरेचीत सप्तक्षरन्ति शिशवे मरुत्पते पित्रे पुत्रासो अप्यवेव तन्नृतम् उभे इदस्योभजस्य राजत उभे जते ते उभयस्य पुष्यतः